ಗಣಪತಿಗಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ನೋ ದಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮ ವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೆ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತಗಿಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಚರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತನೂರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾ ನಸ್ತನು ವಾಚಂತ ಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಗಜೀಃ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇಭಿ ಭಕ್ಷ್ಯತ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಕಿ ಗುಂಸಿಃ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನ ಜಗದ ಯಕ್ಷ್ಮಗಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚ ದದಿ ವಕ್ತ ಪ್ರಥಮೋ ದೇವ್ಯೋಭಿಷಕ್ ಅಹಿ ಗಚ್ಚ ಸರ್ವಾಗಾಂ ಭಯಂ ಸರ್ವಾಚ್ಚಯಾತು ಧಾನ್ಯಃ ಅಸವ್ಯತ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭೃತ್ತು ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಪಿದೋ ದಿಕ್ಷುಶ್ರಿತಾತ್ಸಗತ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡಯೀಮಹೇ ಅಸವ್ಯೋಪಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್
ದಹಾತ್ಯಃ
ಉತೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೇಧುಷೇಕೆ ಅಧೋಗೇ ಅತ್ಯಸತ್ವಾನೋಹಂ ದೇಭ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮುಂಜ ಧನ್ವನತ್ವಮುಭಯೋರಾತ್ರಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯದನು ತ್ವಗುಂ ಸಕತ್ರಾಕ್ಷಶದೇಶು ಧೇ ನಿಷೇದ್ಯ ಶಲ್ಯಾಣಾ ಮುಖಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ದನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನತ್ಯೇಚ ವ ಆಭುರತ್ ನಿಶಂ ಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಟ್ಟ ಮಹಸ್ತೇ ಬಭೂವತೆ ಧನುಃ ತಯಾತ್ಮಾನ್ ವಿಶ್ವತತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೇ ಅತ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಟವೇಕೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಖೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋ ಗಗಿಷು ದಿತ್ತ ಸಪ್ತವಾರೆ ಆತ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅತ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರ್ಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾ ಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಭಾಗವೇ ಸೇನಾಗ್ನೇ ದಿಶಾಂಚ ಪತಗೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಗೇ ನಮೋ ನಮಃ ಸತ್ಪಿಂಜರಾಯತ್ವಿಷೇ ಮತೇ ಪಧೇನಾಂ ಪತಗೇ ನಮೋ ನಮೋ ಬಭ್ರುಷಾಯ ವಿವ್ಯಾಧಿನೇನ್ನಾನಾಂ ಪತಗೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೇತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಗೇ ನಮೋ ನಮೋ ಭವತ್ಯಘೇತ್ಯೈ ಜಗತಾಂ ಪತಗೇ ನಮೋ ನಮೋ ರುದ್ರಾಯತತಾವಿನೇಕ್ಷೇತ್ರಾಣಾಂ ಪತಗೇ ನಮೋ ನಮಃ ಸೂತಾಯಾಗಂತ್ಯಾಯ ವನಾನಾಂ ಪತಗೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ತಪತಗೇ ವೃಕ್ಷಾಣಾಂ ಪತಗೇ ನಮೋ ನಮೋ ಮಂದ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಗೇ ನಮೋ ನಮೋ ಭುವಂತಗೇ ವಾರಿವಸ್ಕೃತಾಯೌಷಧೇನಾಂ ಪತಗೇ ನಮೋ ನಮ ಉಚ್ಚೈರ್ಘೋಷಾಯಾಕ್ರಂದಯತೇ ಪತ್ತೇನಾಂ ಪತಗೇ ನಮೋ ನಮ ಕೃತ್ನವೇತಾಯ ಧಾವತೆ ಸತ್ವನಾಂ ಪತಗೇ ನಮಃ ನಮಸ್ತಕಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಗೇ ನಮೋ ನಮಃ ಕಕುಭಾಗ ನಿಶಂಗಿಣೇ ಸೇನಾನಾಂ ಪತಗೇ ನಮೋ ನಮೋ ನಿಶಂಗಿಣಗಿಶುಧಿಮತೆ ತತ್ ಕರಾಣಾಂ ಪತಗೇ ನಮೋ ನಮೋ ವಂಜತೆ ಪರಿವಂಜತೆ ಸ್ತಾಯೂನಾಂ ಪತಗೇ ನಮೋ ನಮೋ ನಿಚೇರವೇ ಪರಿಚರಾಗ್ಯಾರಣ್ಯಾನಾಂ ಪತಗೇ ನಮೋ ನಮಸ್ತ್ರಿಕಾವಿಭ್ಯೋ ಜಿಗಾಗುಂಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪತಗೇ ನಮೋ ನಮೋ ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಜರದ್ಭ್ಯ ಪ್ರಕೃಂತಾನಾಂ ಪತಗೇ ನಮೋ ನಮ ಉಷ್ಣೇಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಗೇ ನಮೋ ನಮಗಿಷು ಮದ್ಭ್ಯೋದನ್ವಾಭ್ಯಶ್ಚವೋ ನಮೋ ನಮ ಆತನ್ವಾನೇಭ್ಯ ಪ್ರದಿದಧಾನೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮ ಆಗಚ್ಛದ್ಭ್ಯೋ ವಿತೃಜದ್ಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯದ್ಭ್ಯಶ್ಚವೋ ನಮೋ ನಮ ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮ ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚವೋ ನಮೋ ನಮಸ್ತಿಷ್ಠದ್ಭ್ಯೋ ದಾವದ್ಭ್ಯಶ್ಚವೋ ನಮೋ ನಮ ಸಭಾಭ್ಯಸಭಾಪತಿಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋಶ್ವಪದಿಭ್ಯಶ್ಚವೋ ನಮಃ ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯ ತ್ರಿಗುಂಹದೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋ ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪದಿಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋ ಪ್ರಾತೇಕೇಭ್ಯೋ ಪ್ರಾತಪದಿಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪದಿಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯಃ ಚುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಗೇಭ್ಯೋ ರಥಪದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರಭ್ಯಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಸಕ್ಷದ್ಭ್ಯೋರದಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯ ಕರ್ಮಾರೇಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಪುಂಜಿಟ್ಟೇಕೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಗಿಷು ಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯ
ಶ್ವರೇಭ್ಯಶ್ಚ ವೋ
ನಮೋ ನಮಶ್ವಭ್ಯಶ್ವಪದೇಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಗೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ವ್ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೇಡುಷ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೀಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧ್ವನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚಾಜಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮಃ ಊರ್ಜ್ಞಾಯ ಚ ವತ್ಸನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೀಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಯಾಯ ಚ ನಮೋ ಯಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವರ್ಯಾಯ ಚ ಘಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರದೇಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇಣಾಯ ಚ ಶುರಧಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚ ಪಬಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋಧಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಗಣನ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷು ಧಿಮತೇ ಚ ನಮಃ ತೀಕ್ಷ್ಣೇಶ ವೇಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪಥ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋದ್ಯಾಯ ಚ ಸದತ್ ಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಶಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ಪಟ್ಯಾಯ ಚ ನಮೋ ವಶ್ಯಾಯ ಚ ವಶ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಈದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾತ್ ಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమః అగ్రే వధాయ చ దూరే వధాయ చ నమః హంద్రే చ హనీయసే చ నమః వృక్షేభ్యో కరికేశేభ్యో నమః తారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయత్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ కోర్యాయ చ నమః పార్యాయ చ వాద్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ జాలాద్యాయ చ నమః షష్ప్యాయ చ భేన్యాయ చ నమః త్రికత్యాయ చ ప్రవాక్యాయ చ నమః హిరణ్యాయ చ ప్రపత్యాయ చ నమః కిగుంశిలాయ చ క్షగణాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః సల్ప్యాయ చ గేఖ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ట్యాయ చ నమః పాగుంధవ్యాయ చ రజస్యాయ చ నమః షుష్ట్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్వ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చ విఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వత్కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమః ఆనిర్హతేభ్యో నమః ఆమి వత్కేభ్యః ద్రాపే అంధసస్పదే దరిద్రన్నీలలోకితా ఏషాం పురుషాణాం ఏషాం పశూనాం మా భేర్మా రోమో గేషాం కించన మమత్ యాతే రుద్ర శివా తనూ శివా విశ్వాఘ భేషజీ శివా రుద్రస్య భేషజీ తయా నో మృడజీవసేకే ఇమాగం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రభరామహే మతిం యథా నశ్యమసద్విపతే చతుష్పతే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం ప్రిడానో రుద్రో తనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం త్రయోచ్చమనురాయజే పిదా తదశ్యామతవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భగం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం నోత మాతరం ప్రియామాన తనువో రుద్రరీరిషః మానస్తోకేతన మాన ఆయుషి మానో గోషు మానో అశ్వేషు రీరిషః వీరాన్మానో రుద్రభామిదో వదేర్హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్నముత పోరుషగ్నే క్షయద్వీరాయసుం నమస్మేతే అస్తో రక్షాజనో అదిజ దేవ బ్రూహ్యథా జన శర్మ యచ్చ ద్విబరుహాకాః సుఖిశ్రుతం గర్త ततम् युवानम् मृगन्न भीममुपहत्रुमुग्रम् मृडा जरिद्रे रुद्रत्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रत्यगेतर्वृणक्तु परित्वेषस्य दुर्मदिरघायोः अवस्तिरा मगवद्गत्तनुष्वमीढ्वस्तोकायतनयाय मृडया मीढुष्टमजिवतमजिवो न सुमना भव परमे वृक्ष आयुधन् निधाय कृत्यम् वधा नमाचर पिनाक विव्रता गहे
विकिरित विलोहित नमस्ते
अस्तु भगवः यास्ते सहस्रगुम् एतयोऽन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचेनामुखाकृते सहस्राणि सहस्रजोगे रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने बधन्वानि तन्मसे अस्मिन्महत्यर्णवेकेऽन्तरिक्षे भव अधे नीलग्रेवाचितिकण्ठाकाशर्वा अधः क्षमाचराः नीलग्रेवाचितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सत्पिञ्जरा नीलग्रेवा विलोकिताः ये भूतानामधिपतयो विशिगासक्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिपदो जनान् ये पदाम् पदि रक्षय ऐलभृदायव्युदः ये तीर्थाणि प्रजरन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुन्तश्च दिशो रुद्रावितस्तिरे तेषागुम् सहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् ये केऽन्तरिक्षे ये दिव्ये चावन्न पातो वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतीचेर्दशो दीचेर्दशोर्द्वात्तेभ्यो नमस्ते नो मृडयन्तु तेयम् ग्रीष्मो यश्च नोद्वेष्टितम् गोजम्भे दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षे यमामृतात् यो रुद्रो अग्नव्यो अप्सु योषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाचा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्तुषस्तु धन्मायो विश्वस्य क्षयदिवेशजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो हृद्देवमसुरन्दुवस्य अयम् नेहस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेश जोयग शिवाभिमरुषणः ॐ शान्ति। शान्ति शान्तिः ॐ
अग्रा विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च माधिपत्यम् च मे मन्यश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राद्भुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सोक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे यात्रम् च मे सोश्च मे प्रसोश्च मे सेनम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे भूयवाश्च मेनम् च मे क्षुत्य मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिराश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च मापश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च म इन्द्रश्च मे अन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मेधाव्यश्च मेधिपतिश्च म उपागुंसश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मे त्रिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे आर्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे विस्नेहाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृच्च म आधवनीयश्च म आग्नेयम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेदङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम् ऋक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्ठवाच्च मे पष्ठौहे च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् ವ್ಯಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವ್ಯಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಗುಶ್ರೋತ್ರಂ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಮನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಗ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಆತ್ಮಾ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಏಕಾ ಚ ಮೇ ತಿಸ್ರಶ್ಚ ಮೇ ಪಂಚ ಚ ಮೇ ಸಪ್ತ ಚ ಮೇ ನವ ಚ ಮ ಏಕಾದಶ ಚ ಮೇ ತ್ರಯೋದಶ ಚ ಮೇ ಪಂಚದಶ ಚ ಮೇ ಸಪ್ತದಶ ಚ ಮೇ ನವದಶ ಚ ಮ ಏಕ ವಿಗುಂಸತಿಶ್ಚ ಮೇ ತ್ರಯೋ ವಿಗುಂಸತಿಶ್ಚ ಮೇ ಪಂಚ ವಿಗುಂಸತಿಶ್ಚ ಮೇ ಸಪ್ತ ವಿಗುಂಸತಿಶ್ಚ ಮೇ ನವ ವಿಗುಂಸತಿಶ್ಚ ಮ ಏಕ ತ್ರಿಗುಂಶ್ಚ ಮೇ ತ್ರಯಸ್ತ್ರಿಗುಂಶ್ಚ ಮೇ ಚತಸ್ರಶ್ಚ ಮೇ ಷ್ಟೌ ಚ ಮೇ ದ್ವಾದಶ ಚ ಮೇ ಷೋಡಶ ಚ ಮೇ ವಿಗುಂಸತಿಶ್ಚ ಮೇ ಚತುರ್ವಿಗುಂಸತಿಶ್ಚ ಮೇ ಸಾವಿಗುಂಸತಿಶ್ಚ ಮೇ ದ್ವಾತ್ರಿಗುಂಶ್ಚ ಮೇ ಷಟ್ರಿಗುಂಶ್ಚ ಮೇ ಚತ್ವಾರಿಗುಂಶ್ಚ ಮೇ ಚತುಶ್ಚತ್ವಾರಿಗುಂಶ್ಚ ಮೇ ಷ್ಟಾಚತ್ವಾರಿಗುಂಶ್ಚ ಮೇ ವಾಜಶ್ಚ ಪ್ರಸವಶ್ಚ ಬಿಜಶ್ಚ ಕ್ರತುಶ್ಚ ಸುವಶ್ಚ ಬೋಧಾ ಚ ವ್ಯಶ್ನಿಯಶ್ಚಾಂತ್ಯಾಯನಶ್ಚಾಂತ್ಯಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾದೆ ಬಹುರ್ಮನುರ್ಯಜ್ಞನಿರ್ಬೃಹಸ್ಪತಿರುಕ್ತಾ ಮದಾನಿ ಶಗುಂ ತಿಷದ್ವಿಶ್ವೇ ದೇವಾಸೂಕ್ತವಾಚ ಪೃಥಿವಿಮಾತರ್ಮಾ ಮಾಹಿಗುಂಸೀರ್ ಮಧುಮನಿಷ್ಯೇ ಮಧುಜನಿಷ್ಯೇ ಮಧುವಕ್ಷ್ಯಾಮಿ ಮಧುವದಿಷ್ಯಾಮಿ ಮಧುಮತೀ ದೇವೇಭ್ಯೋ ವಾಚ ಮುದ್ಯಾಸಗುಂ ಶುಶ್ರೂಷೇಣ್ಯಾ ಮನುಷ್ಯೇಭ್ಯಃ ಸಂವಾ ದೇವಾ ಅವಂತು ಶೋಭಾಯೈ ಪಿತರೋ ನು ಮದಂತು ಓಂ ಶಾಂತಿ 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 ಓಂ ತಚ್ಛಯ್ಯೋರಾವೃಣೀಮಹೇ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪತಯೇ ದೈವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶನ್ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಸಹಸ್ರಶೀರ್ಷ ಪುರುಷಃ ಸಹಸ್ರಾಕ್ಷ ಸಹಸ್ರಪಾತ್ ಸ್ವಭೂಮಿಂ ವಿಶ್ವತೋ ವೃತ್ವಾ ಅತ್ಯತಿಷ್ಠತ್ ದಶಾಂಗುಲಂ ಪುರುಷ ಏವೇದಗುಂ ಸರ್ವಂ ಯದ್ಭೂತಂ ಯಚ್ಚ ಭವ್ಯಂ ಉದಾಮೃತತ್ವಸ್ಯೇಷಾನಃ ಯದನ್ನೇನಾತಿರೋಹತಿ ಏತಾವಾನಸ್ಯ ಮಹಿಮಾ ಅರೋಜ್ಯಾಯಾಗಶ್ಚ ಪುರುಷಃ ಪಾದೋಸ್ಯ ವಿಶ್ವಾಭೂತಾನಿ ತ್ರಿಪಾದಸ್ಯಾಮೃತಂ ದಿವಿ ತ್ರಿಪಾದೋರ್ಧ್ವ ಉದಯತ್ ಪುರುಷಃ ಪಾದೋಸ್ಯೇಹಾ ಭವಾತ್ ಪುನಃ ತಥೋ ವಿಶ್ವಂ ವ್ಯಕ್ರಾಮತ ಸಾಶನಾನಶನೆ ಅಭಿ ತಸ್ಮಾತ್ ವಿರಾಡ ಜಾಯತ ವಿರಾಜೋ ಅಧಿಪುರುಷಃ ಸ ಜಾತೋ ಅತ್ಯರಿಚ್ಯತ ಪಶ್ಚಾತ್ ಭೂಮಿಮತೋ ಪುರಃ ಯತ್ಪುರುಷೇಣ ಹವಿಷಾ ದೇವಾ ಯಜ್ಞಮತನ್ವತ ವಸಂತೋ ಅಶ್ವಾಸೀದಾಜ್ಯಂ ग्रीष्म इत्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्तसमिध कृताः देवाय यज्ञम् तन्वानाः अवध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेजो भयादतः गावोह जग्निरे तस्मात् तस्माजाता अजावयः यत्पुरुषम् व्यददुः कतिदा व्यकल्पयन् मुखम् किमस्य कौ बाहु का ऊरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यकृतः ऊरो ददस्य यद्वैष्यः त्वद्भ्यागुंशोत्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णौद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः त्वमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते अनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विरदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदामेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीश्च ते लक्ष्मीश्च पत्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिनात्वाक्रिमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणाः कृमीनागुम् राजा अप्येषागस्तपतिर्हतः अधो माताथो पिता अधो को स्थूराः अधो को क्षुद्राः अधो कृष्णा अधो श्वेताः अधो आशातिकाहताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् घण्भण्मृसे ॐ शान्ति शान्ति शान्तिः ॐ यश्छन्दसा वृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मण कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय मेधा देवे जुषमाणा नागा द्विश्वाचे भद्र सुमनस्यमाणा त्वया जुष्टानुदमाना दुरुक्तान् बृहद्वदेम विदधे सुवीराः त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुतत्वया त्वया जुष्टश्चित्रम् विन्दते वसुतानो जुषस्वद्रविणो न मेधे मेधाम् महीन्द्रो ददातु मेधाम् देवि सरस्वती मेधाम् मे अश्विना उभावाधत्ताम् पुष्करस्रजा अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः दैवी मेधा सरस्वती सामा मेधा सुरभिर्जुषता गुस्वाहा आमा मेधा सुरभिर् विश्वरूपा हिरण्यवर्णा जगति जगम्या ऊर्जस्वते पयसा पिन्वमाना सामा मेधा सुप्रतीका जुषन्ता मयि मेधाम् मयि
प्रजाम् मयि अग्निः तेजो ददातु मयि मेधाम् मयि प्रजाम् मयि इन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् ॐ मयि मेधाम् मेधाम् मयि मेधाम् मयि मेधाम् मयि मेधाम् मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि अग्निरग्निर्मयि प्रजाम् प्रजाम् मयि अग्निः प्रजामिति प्रजाम् मयि अग्निरग्निर्मयि मयि अग्निस्तेजस्तेजोऽग्निर्मयि मयि अग्निस्तेजः अग्निस्तेजस्तेजोऽग्निरग्निस्तेजो दधातु दधातु तेजोऽग्निरग्निस्तेजो दधातु तेजो दधातु दधातु तेजस्तेजो दधातु मयि मयि दधातु तेजस्तेजो दधातु मयि दधातु मयि मयि दधातु दधातु मयि मेधाम् मेधाम् मयि दधातु दधातु मयि मेधाम् मयि मेधाम् मेधाम् मयि मेधाम् मयि मेधाम् मयि मेधाम् मयि मेधाम् मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि इन्द्र इन्द्रो मयि प्रजाम् प्रजाम् मयि इन्द्रः प्रजामिति प्रजाम् मयि इन्द्र इन्द्रो मयि इन्द्र इन्द्रियमिन्द्रियमिन्द्रो मयि इन्द्र इन्द्रियम् इन्द्र इन्द्रियमिन्द्रियमिन्द्र इन्द्र इन्द्रियम् दधातु दधात्विन्द्रियमिन्द्र इन्द्र इन्द्रियम् दधातु इन्द्रियम् दधातु दधात्विन्द्रियमिन्द्रियम् दधातु मयि दधात्विन्द्रियमिन्द्रियम् दधातु मयि दधातु मयि दधातु दधातु मयि मेधाम् मेधाम् मयि दधातु दधातु मयि मेधाम् मयि मेधाम् मेधाम् मयि मेधाम् मयि मेधाम् मयि मेधाम् मयि मेधाम् मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि सूर्यः सूर्यो मयि प्रजाम् प्रजाम् मयि सूर्यः प्रजामिति प्रजाम् मयि सूर्यः सूर्यो मयि सूर्यो भ्राजो भ्राजः सूर्यो मयि सूर्यो भ्राजः सूर्यो भ्राजो भ्राजः सूर्यः सूर्यो भ्राजो दधातु भ्राजः सूर्यः सूर्यो भ्राजो दधातु भ्राजो दधातु दधातु भ्राजो भ्राजो दधातु दधात्विति दधातु ॐ शान्ति शान्ति शान्तिः ओ अग्निर्मे वाजिश्रितः वाग्हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि सूर्यो मे चक्षुषिश्रितः चक्षुर्हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रगुम् हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रिताः शरीरगुम् हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि ओषधि वनस्पतयो मे लोमसु श्रिताः लोमानि हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि इन्द्रो मे बले श्रितः बलगुम् हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि पत्यन्यो मे मूर्ध्नि श्रितः मूर्धा हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि आत्मा म आत्मनि श्रितः आत्मा हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः ॐ शान्ति शान्ति शान्तिः ईशानत्सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरातम् तद्विप्रासो विपन्यवो जाग्रुवागुम् सत्समिन्धति विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् హంస హంసాయ విద్మహే పరమహంసాయ ధీమహే తన్నో హంస ప్రచోదయాత్. స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహీమహేషాః. గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతి.